समशत्रौ च मित्रे च
तथा
मानापमानयोः
शीतोष्ण सुख दुःखेषु
समसंग विवर्जितः